Lesson 30, Exercise 1, pages 247 and 248. Purve vayasi tat kuryat dhyena vriddhas sukham vaset. Yavat jivena tat kuryat dhyena mutra sukham vaset. Yasmat achintayitva tvam pitara mahinas tasman me naiva dosho matastava. He priye, yadityam pratyaham rodishyasi, tarhi kama maham tvam tyakshyami. Odanam bhokshye itityam manushe, kintu bhuktas sotithibhi, aduna kim bhokshase? Suryasvatejasa jagati prakashan tanoti. तथा सुपुरुषो जगति ज्ञानदीपेन अज्ञानतमो भेत्स्यामीति मनुते सर्वासु दिक्षु रामः शत्रून् पराजित्य महद् यशस्तनोति यथा चंद्रमसस्तेजः सर्वत्र प्रसरति तथा रामस्य कीर्तिरपि यथा काशो ज्योतिर्भिरलंक्रियते तथा जनः शरीरम् भूषणैश्चेतो ज्ञानेन हृदयञ्च गुणैरलंकरोतु पापं कृत्वा पिशुनो मनुते नकश्चिद् वेत्ति माम् इति गंगा नद्या स्थिरमधितिष्ठन्तो धीवराः सूत्र शतैर् जालानि तन्वन्ति वाल्मीकिर् नाम कविर् नारदं मुनिमब्रवीत् काव्यमहं कर्तुमिच्छामीति तच्छ्रुत्वा नारदः प्रत्यवदत् यत्ते प्रतिभाति तत्कुरुष्वेति जनोयं न शक्नोति भारं वोढुमतः कुर्वस्य साहाय्यम् ये दुर्वृत्तिं कुर्वन्ति ते दुर्गतिं प्राप्नुवन्ति ये सुवृत्तिं कुर्वन्ति ते सुगतिं प्राप्नुवन्ति वाल्मीकिः कविः रामायण काव्यं विलिख्य रामस्य यशः सर्वासु दिक्षु प्रतनोति त्वया शत्रून् पराजित्य लब्धं महाधनं दरिद्रेभ्यो दातुं शक्येत इति गुरुर् नृपायाब्रवीत् गुरोस्तद्वचनं श्रुत्वा स नृपो ब्रूते हे गुरो महाबुद्धे यद्यहं मम सर्वं धनं दरिद्रेभ्यो दद्याम् तर्ह्यहमेव दरिद्रो भवेयमिति तदा स गुरुर्ब्रवीति हे नृप दरिद्रेभ्यो धनं दत्त्वा यत्पुण्यं त्वं लप्स्यसे तेन पुण्येन त्वं पुनर्महाधनं जेष्यसि मा चिन्तां कुर्विति सुकविः सुकाव्येन सुयशस्तनोति कुकविः कुकाव्येन कुयशस्तनोति अपिता वभौ यशस्तनुतः येन केन प्रकारेण कुकविरपि यशो लब्धुमिच्छति